सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे एकोनविंशतितमः भागः, फेब्रवरी मासस्य अष्टाविंशतिः दिनाङ्कः। येनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिन्त्रयम् मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। सखि शब्दप्रक्रियायां स्मः। केवलस्य सखिशब्दस्य किं भवति इति टु जस्ट् गेट् ए काम्प्रिहेन्सिव् ऐडिया आफ़् वाट् एक्साक्ट्लि इस् हेपनिङ्ग् इन् ईजिप्ट्। केवलस्य सखिशब्दस्य किं भवति, सौ अर्थात् सुप्रत्यये परे सो अनङ्कौ इत्यनेन अनङादेशः भवति, तेन सखा इति रूपं सिद्ध्यति इति एकं कार्यं। सर्वनामस्थानेषु निद्वद्भावः सख्युरसम्बुद्धौ इति सूत्रेण सर्वनामस्थानेषु परेषु निद्वत् भवति प्रत्ययः। प्रत्यये निद्वति सति अचोयणिति इत्यनेन वृद्धिः भवति। प्रत्ययस्य अजादित्वात् एचोयवायावः इति आयादेशोऽपि भवति। तेन सखायौ सखायः सखायं सखायौ, सर्वत्र प्रक्रिया समाना। प्रत्यये भिन्ने सत्यपि सूत्रं समानम्। इट् इस् द सेम् सूत्र विच् अप्लैज़् इन् आल् फोर् केसेस् टु गिव् सिमिलर् फार्म्स् इति द्वितीयः विशेषः सखिशब्दस्य विषये। तृतीयः, घिसंज्ञाप्रयुक्तं कार्यं न भवति। घिसंज्ञाप्रयुक्तं कार्यं किम् इति चेत् आङ्गोनास्त्रियामिति नाभावः, घेर्णिति इति गुणः, अच्चघेः इति अकारादेशः, एतानि घिसंज्ञाप्रयुक्तानि कार्याणि तृतीयातः आरभ्य सप्तम्येकवचनपर्यन्तं तानि कार्याणि न भवन्ति। दट् इस् आल् द डिफ़रेन्स् बिट्वीन् हरि अण्ड् सखि। इन् आल् अदर् फार्म्स् द प्रक्रिया इस् सिमिलर्. दीस् आर् द त्री थिङ्ग्स् विच् हेपन् स्पेसिफिकली फार् सखिशब्द. वन् इस् द अनङ् आदेश इन् सुप्रत्यय, द सेकेण्ड् इस् निद्वद्भाव वेन् फालोड् बै सर्वनामस्थानप्रत्यय, द थर्ड् इस् दट् द घिसम्य, वट् एवर् कार्य इस् मेण्डेटेड् ड्यू टु घिसम्य इट् विल् नाट् हेपन्. केवलस्य सखिशब्दस्य इयङ्गतिः समासे किं भवति? सुसखि, अतिसखि, परमसखि, शोभनः सखा, अतिशयितः सखा, परमः सखा यस्य सः, अन्तिमः बहुव्रीहिः, आदौ द्वयं तत्पुरुषसमासः, किन्तु समासान्तः न भवति इति विशेषः। बिकास् वेर् एवर् वि हेव् समासान्त इट् बिकम्स् अकारान्त, सो वि नीड् नाट् स्पीक् आफ़् इट् हियर्. द फार्म्स् विल् बि लैक् रामशब्द. वाट् हेपन्स् वेन् देर् इस् नो अकारान्त? इफ् देर् इस् नो समासान्त एण्ड् द पदा रिमैन्स् इकारान्त, द प्रातिपदिका इस् इकारान्त, तदा किं भवति इति चेत् एतेषां विषये अनङादेशः भवति. सुप्रत्यये परे अनङादेशः, सुसखा, अतिसखा, परमसखा इति रूपं. निद्वद्भावोऽपि भवति. अनङ् निद्वद्भावौ गौणत्वेऽपि भवतः, प्राधान्येऽपि भवतः इति उक्तं दीक्षितैः. तेन सर्वेषु रूपेषु निद्वद्भावः अपि भवति, सुसखायौ, अतिसखायौ, परमसखायौ इत्यादिना रूपाणि. घिसंज्ञाप्रयुक्तं कार्यं तु भवति. शेषोभि असखि इत्युक्तत्वात् यत्र समुदायस्य सखि रूपत्वमस्ति, अर्थात् केवलः सखिशब्दः यत्र अस्ति तत्रैव घिसंज्ञाप्रयुक्तकार्यस्य निषेधः. एतेषां शब्दानां घिसंज्ञाप्रयुक्तानि कार्याणि भवन्ति, अर्थात् आङ्गोनास्त्रियां सुसखिना, अतिसखिना, परमसखिना. सखिशब्दस्य विषये तु सख्या इति भवति, अत्र सुसखिना. तत्र सख्ये इति भवति, अत्र सुसखये, अतिसखये. सख्युः इत्यस्य स्थाने अतिसखेः, सुसखेः. एवमेव सख्यौ इति तत्र यणादेशः, सर्वत्र यणादेशः भवति. अत्र अच्चघेः इत्यनेन सुसखौ, अतिसखौ, परमसखौ. सो द डिफ्रेन्स् बिट्वीन् द केवलसखिशब्द एण्ड् दीस् वर्ड्स् इस् ओन्ली इन् दिस्. दट् इस् दीस् वर्ड्स् गेट् वाट् एवर् कार्य इस् ड्यू टु घिसंज्ञा. सो द फस्ट् फैव् रूपास् आर् लैक् सखिशब्द एण्ड् द लास्ट् आल् अदर् फार्म्स् आर् लैक् हरिशब्द. वाट् हेपन्स् वेन् इट् इस् लाक्षणिक प्रश्नः. सखीम् अतिक्रान्तः, सखी इति इकारान्तस्त्रीलिङ्गः, ताम् अतिक्रान्तः अतिसखि इत्यत्र तु वस्तुतः सखिशब्द एव नास्ति. हियर् इन् सुसखि, अतिसखि एन् परं सखि, इट् इस् ओरिजिनलि द सखिशब्द. बट् इन् दिस् अतिसखि, दर् आर् टु अतिसखि पदास्, डोण्ट् गेट् कन्फ्यूस्ड्. दिस् इस् अतिशयितः सखा इति तत्पुरुषसमासः सखी शब्देन सह. इदं तु सखीम् अतिक्रान्तः इति प्रादिसमासः स्त्रीलिङ्ग ईकारान्त सखिशब्देन सह सखीशब्देन सह. सो हियर् गोस्त्रियोरुपसर्जनस्य इति लक्षणेन तस्य ह्रस्वः जातः. अयं लाक्षणिकः सखिशब्दः इत्युच्यते. वि काल् दिस् एस् लाक्षणिक बिकास् दिस् वास् नाट् ओरिजिनलि सखि, इट् वास् सखी. द ईकार हेस् बिकम् ह्रस्व अण्ड् सो नौ इट् हेस् आर्टिफिशियलि अस्यूम्ड् द फार्म् आफ़् सखि, बट् इट् इस् नाट् ओरिजिनलि सखिशब्द. सच् केसस् वि काल् इट् लाक्षणिक. सो यत्र लाक्षणिकः सखिशब्दः तत्र अननादेशः न भवति, निद्वद्भावोऽपि न भवति, घिसंज्ञाप्रयुक्तानि कार्याणि तु भवन्ति. सो दिस् इस् इकारान्त, इट् विल् गेट् घिसंज्ञाकार्य, बट् इट् विल् नाट् गेट् अनङ् अण्ड् नाट् गेट् नित्वा. इट् सिम्प्लि मीन्स् दिस् वर्ड् रन्स् कम्प्लीट्लि लैक् हरिशब्द, पूर्णतया हरिशब्दवद् भवति. ओके, सो सखिशब्दः अत्र सुसखी अतिसखी परमसखी इत्यत्र आदौ अर्थात् सर्वनामस्थाने परे सखिशब्दवत्, अन्यत्र हरिशब्दवत्. अतिसखी इति लाक्षणिके सखिशब्दे तु पूर्णं हरिशब्दवद् रूपाणि. एनी डौट्स् इन् दिस्? सो देन् वी केन् मूव् आन्. अग्रिमः पति शब्दः. सो दिस् इस् द थर्ड् टैप् आफ् इकारान्त वर्ड् वि आर् स्टडि. आदौ हरिशब्दः स्टाण्डर्ड्, ततः सखिशब्दः, तस्य वेरियेशन्स् किं भवति तत्, ततः इदानीं पतिशब्दः. पतिशब्दस्य कः विशेषः इति चेत् पतिः समास एव इति सूत्रं विद्यते. शेषोभ्यसखि पतिः समास एव, पदत्रयं पतिः समासे एव. वट् इस् द सन्धि विच् इस् हेपनिङ्ग् हियर्? छेदस्तु समासे एव इत्यस्ति. सूत्रं पठ्यते संहितायां पतिः समास एव. किं भवति, कस्सन्धिः? वसुजि सोरि, देर् इस् नो विसर्ग, इट् इस् समासे एण्ड् नाट् समासः. नो नो नो, हियर् समास एव. नो, जस्ट् थिङ्क् ओवर् इट्. इट् इस् समासे एव. So, some people have answered. It is Echoyavayavah followed by Lopashakalyasya. So, Echoyavayavah ittanena samasa yeva iti yakaraha bhavati ayadeshe. Tataha tasya yakarasya pakshikaha lopaha. Padante, padanta yohu yavayohu valopaha ashipare. Ityuktatvat vikalpena yakarasya lope samasa eva. So, it is Echoyavayavah followed by लोपशाकल्यस्य. सो पतिः समासे एव इति छेदः. किं समासे पतिः किं भवति? घि इति अनुवर्तते. शेषोभ्यसखि इति सूत्रात् घि. पतिः समासे एव घि. द मीनिङ्ग् शुड् बि वेरि आब्वियस्. दिस् इस् वाट् वि काल् ए नियमसूत्र. नियमसूत्र कथं नियमत्वमस्य? सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति. पतिशब्दस्य घि संज्ञा वर्तते. ओके, अस्यूम् दट् दिस् सूत्र डस् नाट् एक्सिस्ट्. वाट् हेपन्स्? शेषोख्यसखि अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् इति सूत्रार्थः. तेन पतिशब्दस्य सर्वत्र घिसंज्ञा प्राप्नोति. इफ् दिस् सूत्र इस् नाट् देर्, द वर्ड् पति वुड् गेट् घिसंज्ञा एव्रिवेर्. सिद्धमस्ति. तदा किमुच्यते अनेन? समासे एव घिसंज्ञा भवति. यत्र पतिशब्दः समासावयवः तत्रैव तस्य घिसंज्ञा केवलस्य पतिशब्दस्य नास्ति इति नियम्यते. सो वन्स् संथिङ्ग् इस् आल्रेडि बीङ्ग् ऐ मीन् वन् द कार्य इस् आल्रेडि देर्, but the range is being reduced. That is called a Niyama Sutra. So Patishabda would have got Ghisamya everywhere, but this sutra states that the Ghisamya is restricted to when it is a part of a samasa. So the only the simple Patishabda does not have Ghisamya. So idam Niyama Sutram. Kim Niyamyate Patishabdaha Samase Eva Ghisamyaha Syat. Samase Eva. So wherever we have Eva Kara, generally we treat it as a Niyama Sutra. So this word pati will get the samyaghi only in samasa. Is the the samya itself is being restricted. So kahartaham kevalasya patishabdasya ghisamya nasti. If you treating patihi pati patayaha, it goes like harishabda. Patihi pati patayaha, he pati etc. But ghisamya prayuktani karyani na bhavanti. Kani ghisamya prayuktani karyani punaha punaha uchyante. आङ्गोनास्त्रियामिति नाभावः घेर्णिति इति गुणः अच्चघेः इति अर्थम् त्रीण्येव घिसम्याप्रयुक्तानि कार्याणि तानि न भवन्ति न भवन्ति इति चेत् तृतीयातः आरभ्य सप्तम्येकवचनपर्यन्तं व्यत्ययः विद्यते. सो द फार्म्स् वुड् डिफर् दीस् त्री सूत्रास् अप्लै फार् द एकवचन फ्रम् तृतीया टु सप्तमी. सो इन् आल् दीस् फार्म्स् देर् इस् अ डिफ्रेन्स् अण्ड् इन् आल् अदर् केसस् देर् विल् नाट् बि एनी डिफ्रेन्स् बिट्वीन् पति अण्ड् हरि. सो किं भवति ता तृतीयैकवचने पति आ इत्यस्ति, यथा सखि आ इति संज्ञा नास्ति चेत् आङ्गो नास्त्रियामिति नाभावः न भवति. सो विल् नाट् हाव् नाभाव. इन् द अब्सेन्स् आफ् नाभाव गो बेक् टु डिफाल्ट् इको यणति इत्यनेन यणादेशे पत्या इति रूपं पति आ यणादेशे पत्या. सो हिसंज्ञा प्रयुक्तः प्रयुक्तं प्रथमं कार्यं भवति नाभावः. चतुर्थ्येकवचने किं भवति, हरि ए इति स्थिते घेर्गिति इत्यनेन गुणे हरे ए अयादेशे हरये इति रूपम्. अत्र तु पति ए इति स्थिते घिसंज्ञायाः अभावात् घेर्गिति इति गुणो न भवति. किं भवति तर्हि, इको यणसि इति यणादेशे पत्ये इति रूपम्. पुनः पञ्चम्येकवचने हरि अस् हरिशब्दस्य किं भवति, पुनः घेर्णिति इति गुणः हरे अस् नसिंहसोश्च इत्यनेन पूर्वरूपे हरे ऋत्वे विसर्गे हरेः इति रूपं. पतिशब्दस्य तु पति अस् इति स्थिते गुणः न भवति. ओके, दिस् इस् अ क्वेश्चन्, डस् घी अफेक्ट्, विल् कम् बेक् टु दिस्. सो घेर्गिति इति गुणो न भवति, न भवति चेत् किं भवति, इको यणसि इति यणादेशे पत्यस् इति भवति. ततः सखिशब्दे अधीतं सूत्रं ह्यत्यात् परस्य कृतयणादेशाभ्यां खी खी शब्दाभ्यां ति ति शब्दाभ्यां नसिंहसोः अतिपरे उत्वम् उकारः एकादेशः स्यात्. सो यु हेव् डन् यण्, यु हेव् थिय, रैट्, ति अ त्य इत्यस्ति, तस्मात् अकारे परे तस्य अतः उकारः भवति, एकादेशः न, अकारस्य स्थाने उकारः आदेशः भवति. पत्युस् ऋत्वे विसर्गे पत्युः इति रूपम्. नौ देर्स् अ क्वश्चन् आस् बै प्रिया. ऐ सेड् द सिन्स् घिसम्या इस् नाट् देर्, ओन्ली घिसम्या प्रयुक्तानि कार्याण्येव न भवन्ति, अर्थात् घेर्णिति इति न भवति. नसिंहसोश्च इति सूत्रस्य का विपत्तिः? So why shouldn't we apply Nasinga Soshcha? Because, okay, could anybody answer? I can say it. Nasinga Soshcha iti sutram kimartham na bhavati. Ghisamya prayuktatvam nastitasya. Nasinga Soshcha is not restricted to words with ghisamya. Exactly. So, you know the answer. It has to be eng. Eng antat Nasinga Soho atipare पूर्वरूपं भवति इति सूत्रार्थः. वेन् एन् एङ्ग् लेटर् इस् फालोड् बै अकार आफ् नसि आर् नस् देर् इस् पूर्वरूपम्. इफ् वि डोण्ट् डू गुण, घेर्ङिति इति गुणः न भवति चेत् एङ् वर्णः अपि न भवति. यु डोण्ट् फैण्ड् एन् एङ् वर्ण हियर्, रैट्? सो देट् इस् वै वि केनाट् अप्लै नसिकसोष्ट, बिकास् द रूल् इस् नाट् साटिस्फैड्. इफ् देर् वेर् एन् एङ् वर्ण, वि कुड् हेव् अप्लैड्. सो द अब्सेन्स् आफ् घिसंज्ञा डस् नाट् डिरेक्ट्लि प्रिवेण्ट् नसिकसोष्ट, it just there is no nimitta. The nimitta for Nasinga Soshta, which happens to be an Eng Varna, does not arise. So Yanadeshaha Khyatyat Parasyati Uttvam Patyuhu Iti Panchamekavachane Shashthekavachane Saptamekavachane Kimhavati Pati I Harishabde Harishabdat Nipratyaya Pare Achchaghehe Ikarasya Aukaraha प्रकृतेः अकारः अन्तादेशः हर औ वृद्धौ हरौ इति रूपम् अत्र तु हि संज्ञा नास्ति अच्चघेः इति अकारादेशः न भवति तदभावे किं स्यात् औत् सखीशब्दे अपि आगतम् औ इति इदुद्भ्यां परस्य ङेः औत् स्यात् वेनेवर् द ङी प्रत्यया इस् प्रिसीडेड् बै इत् उत् ह्रस्व इकार और् ह्रस्वकार It will be replaced by au. So, pati au, aukara deshe krute, ikoyanasi, yana deshe, patyau. So, pati shabda differs only in ekavachana from tritiya to saptami because it does not have ghisamya. Because pati samasa eva restricts ghisamya to samasa. Right? Shesham harivat. आरंभात् सुप्रत्यादारभ्य अन्ते सुप् प्रत्ययपर्यन्तं हरिवत् देयर इज नो अदर डिफरेंस बिटवीन पतिशब्द एंड हरिशब्द समासे तु यत्र समासः तत्र घिसंज्ञा भवति शेषोभ्य सखि भूपतये भूपतिना भूपतये भूपतेः भूपतौ नाभावः गुणः अत्वं त्रीण्यपि कार्याणि भवन्ति Purnam Harivat. The entire Shabda will run like Hari Shabda, that is all. There is no difference between Hari Shabda and Bhopati, Narapati, Sitapati, whatever. So, Pati Shabdaha, Sarve Jananti Iti Bhavayami. So, wherever you see in red, it differs because of Ghisamya. Everything else is like Hari Shabda. In the same five cases, if you go to a samasa, it will be Patya Bhupatina, Patye Bhupataye, Patyuhu Bhupatehe, Patyau and Bhupatau. So, anybody, in an obvious question, Katham Tarhi Sitayah Pataye Namaha. It's a very standard question. How? Because pati should be patye and not pataye. There is no ghisamya, so you do not have guna. So how do you say? Everybody knows the shloka, I guess. Ramaya Rama Bhadraya Rama Chandraya Vedhase Raghunathaya Nathaya Sitayah Pataye Namaha Arsha Prayogaha Atyekam Samadhanam. We have this concept called Arsha. Rishehe Idam Arsham. Rishi Prayogas. Rishis. Like Valmiki, Vyasa, the few of them. So there, sometimes there is a variation from whatever is seen in Panini in this. You can support that as Arsha Prayoga. Arsha Prayoga ha, Arsha Prayuktatvat Sadhu. Like we have some cases in Vyakarana itself where Panini has made some Prayoga, we say Paninehe Prayoga ha, Sautratvat Sadhutvam or Bhashya Prayogat Sadhutvam. Similarly, there is a concept called Arshatvat Sadhu. Since it was used by a rishi and it is sadhu, but we cannot, it does not mean that we have the license to use pataye. If I say pataye, it is wrong. If you say that is also wrong. But if you are quoting from that, it is okay. Iti pati shabdaha. Kopi sandehaha. Any doubts? अग्रेसरामः इकारान्तः पुल्लिङ्गः कति शब्दः अनदर वर्ड कॉल्ड कति कति मीन्स् कति शब्दाः कति पाठाः कति फलानि ह how many, right? It's a question on that number. Difference between how much and how many. Kati ityasya how many. It's a question regarding number. So kim shabdat sankhya parimane, the measure of number. So that is how it is derived. Let's see it before that. Is eva required in the sutra? Okay, I'm sure this has been discussed somewhere. Okay, and the sutra just have been patissamase. Since it still applies, siddha sati arabhyamano vidhi niyamaya bhavati, because still have got the niyama. But I don't know what is the siddhanta, I have to read up the commentaries, but I think it could have been there. But there are places where Panini makes a distinction of using eva to clarify that it is a Niyama Sutra. But more I'll have to read up to see if what the Bhashyakara has said, I don't know. Kati Shabdaha Nityam Bahuvachanantaha. How many? You're assuming the question is always in Bahuvachana. The answer might be Ekam Dve, anything. But the question is always assuming that it is many. So Nityam Bahuvachanantaha Kim Itti Shabdate Dati iti pratyaha. Kimas sankhya parimane dati cha iti dati pratyaha. So the pratyaya, the meaning of the pratyaya is sankhya parimana. Parimana is a measure, sankhya is number. A measure of number is the sense of that suffix. Kadhita pratyaha. Dati ityatra dakarasya chitu ityanena iksamya tasya lopaha. So ati iti bhavati. Yatra dakara se itsamya. Wherever the dakara becomes it, dit pratyaha, everywhere there is a sutra which applies, it's called tehe. T. What is T? T ityakte kim? अचोन्त्यादि टि अचः अचां मध्ये यः अन्त्यः तदादि शब्दस्वरूपं टि संयम् स्यात्. सो वाट् एवर् इस् द लास्ट् अच् इन् एनि पार्टिकल् एण्ड् वाट् एवर् फालोस् विल् हेव् द संज्ञा काल्ड् टि. सो अत्र इम् इत्यस्य टि संज्ञा विद्यते. अन्तिमः अच् भवति इकारः. इम् इत्यस्य टि संज्ञा. टेः लोपः भवति. वेनेवर् फालोड् बै प्रत्यय विच् इस् डित् द टि विल् गेट् डिलीटेड्. सो इम् इत्यस्य लोपे क् अति कति इति इकारान्तं प्रातिपदिकं कृत्तद्धितसमासाश्च कथितान्तत्वात् कृत्तद्धितसमासाश्च इति प्रातिपदिकसंज्ञा. सो नित्यं बहुवचनान्तः इत्युक्ते जस् प्रत्ययः भवति. कति अस् इत्यस्ति. यथा हरयः तथा कथयः इति भवेत् न भवति. किं भवति इति चेत् बहुगणवत् दति सङ्ख्या सूक्तं पदद्वयं बहुगणवतु दति इति समासः. सङ्ख्या इति भिन्नं पदं. संज्ञासूक्तं संज्ञासूत्र. इट् गिव्स् द संज्ञा काल्ड् सङ्ख्या. सङ्ख्या इति संज्ञा विधीयते. सङ्ख्या इस् अ टेक्निकल् टर्म्. सङ्ख्या एस् वि नो नार्मली इस् नम्बर्. इट् इस् करेक्ट्. बट् इन् पाणिनियन् ग्रामर् सङ्ख्या हेस् बिन् डिफैन्ड् एस् बहुगणवतु दति. All these particles, the word bahu, the word gana, the pratyaya vatu and the pratyaya dati, all these are called sankhya. Ete sankhya samyaha sihu. The numbers are also called sankhya and these particles are also given the term, given the name called sankhya. So idanim kati iti datyantam. Since it is a particle ending in dati, it gets the sankhya samya. अपरा अपि संज्ञा विद्यते. दति च इति अपरं सूत्रम्. इदमपि संज्ञासूत्रम्. अनेन षट् इति संज्ञा विद्यते. सो दीस् आर् ए कपल् आफ् कन्फ्यूसिङ्ग् संज्ञास् आफ् पाणिनि. बिकास् एस्पेशलि दिस् षट् षट् इस् अ मीन्स् सिक्स्. there is a particle. But this shat is a samnya. It is a name which is given to a set of numbers. Shnanta shat daticha. Any number which ends with shakara, murdhanya shakara, nakara and datyanta. All these put together are called shat. Please do not ask me why he calls them shat. I do not know. It is just that he has given a samya called shat to these things. Shnanta, any number which ends with shakara, a number which ends with nakara, like you have panchan, saptam, dashan, all those are nakaranta pratipatika. So all those, and daticha, any word which ends with the suffix dati, these things are called shat. Shat iti vayyakaranam samya. बहुगणवतुडति संख्या इति सूत्रात् संख्या इति अनुवर्तते श्नान्ता षट् इति षट् इति अनुवर्तते दत्यन्ता संख्या षट् सम्या स्यात् सो नौ यू हैव द वर्ड कति कति एंड्स विद द दति प्रत्यय सो एंड इट गेट्स अ सम्या कॉल्ड संख्या फ्रॉम बहुगणवतुडति संख्या एंड इट आल्सो गेट्स अ सम्या कॉल्ड षट् फ्रॉम दिस सूत्र सो यूजिंग दीज टू सूत्रास बहुगणवतुडति संख्या तथा डति च इति सूत्राभ्याम कति इति शब्दस्य संज्ञाद्वयं विहितम् संख्या इति एका संज्ञा षट् इति एका संज्ञा कति गेट्स दीस टू नेम्स राइट दानी षट् संज्ञा व्हाट इज द यूज ऑफ दीस संज्ञा इफ यू लुक एट इट षट् ओके सो लेट्स हैव दिस नेक्स्ट ही इंट्रोड्यूसेस अनदर सूत्र प्रत्ययस्य लुक् श्लु लुपः डोंट लुक् फॉर अ लिंक बिटवीन द सूत्रस नाउ जस्ट नो द मीनिंग ऑफ द सूत्र सेपरेटली वी विल पुट देम टुगेदर एट द एंड सो प्रत्ययस्य लुक् श्लु लुपः इति अग्रिमं सूत्रं पदद्वयं विद्यते प्रत्ययस्य लुक् श्लु लुपः अदर्शनं लोपः इति पूर्वसूत्रात् अदर्शनं इति अनुवर्तते वी स्टडीड दिस सूत्र अदर्शनं लोपः प्रसक्तस्य अदर्शनं लोपसमयं स्यात् हैव वी या ऑफ कोर्स वी हैव हैड लोपशाकल्यस्य संयोगं सिलो लोप मींस समथिंग व्हिच इज देयर बट व्हिच इज नॉट सीन नाउ राइट सो अदर्शनं प्रत्ययस्य अदर्शनं व्हेनेवर वी आर डिलीटिंग अ प्रत्यय यू थिंक व्हाट पाणिनी डज दिस ही डिलीशन डिलीशन इज जनरली कॉल्ड लोपः फॉर एग्जाम्पल हल्द्याभ्यो लोपो व्योर्वली लोपशाकल्यस्य हल्द्याभ्यो दीर्घात् वृत्तं हल् इत्यत्रापि लोपः सो लोप इज द कॉमन वर्ड फॉर डिलीशन बट देर आर स्पेशल केसेस वेयर पाणिनी डिलीट थिंग्स विथ अ फ्यू अदर टर्म्स टेक्निकल टर्म्स ही डिलीट्स प्रत्ययस् प्रत्ययस्य अदर्शनं व्हेन ही इज डिलीटिंग प्रत्यय ही यूजेस थ्री वर्ड्स टू इंडिकेट डिलीशन इट इज नथिंग बट लोप It just means deletion, but they are called by special names. Okay, so luk, shlu, lup. So you can say pratyayasya luk bhavati, shlu bhavati, athava lup bhavati. Okay, so when a pratyaya is deleted by the term luk, it is called luk. Okay, or shlu or lup. These are special kinds of deletion. Why did he need? I mean, it's a simple deletion, right? If you ask. There are cases. If a pratyaya has been deleted by luk, there would be some karya. If it has been deleted by shlu, there would be some other. An example is a sutra called shlau. Juhotyadibhya shluhu. So the pratyaya, the shap vikarana, if I am talking about dhatus, you know the general structure of a dhatu. Path a ti. Path iti dhatuhu. Shap akara vikarana pratyaya. Ti iti akhyata pratyaya. Juhotyadigane. यथा ददाति जुहोति बिभेति इत्यादिषु प्रत्ययस्य शप् प्रत्ययस्य श्लु इत्यनेन लोपः क्रियते मीन्स् द प्रत्यय इस् डिलीटेड् दट् इस् आल् बट् द डिलीशन् इस् बै अ स्पेशल् टर्म् काल्ड् श्लु एण्ड् हि हेस् क्रियेटेड् अ सूत्र काल्ड् श्लौ वेन् एवर् देर् हेस् बीन् श्लु देर् इस् अ द्वित्वा दट् इस् वै इन् द थर्ड् गण यु हियर् दा ददाति भी बिभेति धा दधाति हु जुहोति एव्रिवेर् देर् इस् द्वित्वा So that dvitva will happen only if something has been deleted by shlu and not if it is luk or just lopa. So what you have to know is there are four kinds of deletion. The deletion being done saying it is lopa, deletion being done, saying it is look, shlu and lup. There are four different kinds of this. Okay. So they are all deletions. Okay. So now there is a question which makes sense. Is it true that look, shlu, lup causes complete deletion of pratyaya as opposed to lopaha? Generally, pratyayasya luk bhavati, it gets lopa, correct. But, I mean, I don't think that is the major difference between lopa and luk. They just, everything means deletion. That is all. The difference is what happens after deletion. Why we call it a complete deletion is because once these have been deleted, we cannot have pratyaya lakshana, which we will see just next. So, whether it is complete deletion, I have to see actually. I have not come across this particular point. I'll think about it and tell you. So coming back, pratyayasya luk shlu lupaha. So a pratyaya can be deleted by any of these three or lopa. What happens when it is deleted by these three is, okay, let's see an example of this. He says shadbhyo luk. Paradvayam shadbhyaha luk iti vidhiyate. Jashasohu shihi iti sutrat. Jashasohu iti anuvartate. Shadbhyaha iti panchami. Shadbhyaha parasya parayoho jashasoho luk bhavati. Arthan lopaha bhavati ityarthaha. Shadbhyaha parayoho jashasoho luk syat. Right? Ha. Kati. Now coming back to kati. Okay, we got the link. I hope gati gets the samya called shat. It is called sankhya and it is called shat iti samya vidyate. Shat samyayam satyam shadbhyo luk. Shat sangyakebhyaha parayohu jashasohu luk arthan lopaha bhavati iti sutrarthaha. Right? So you have kati and as. Daticha ityanena kati shabdasya shat iti samya vidyate. Shat samyayam satyam shadbhyo luk ityanena jasaha luk bhavati. So yeah, this is the question which Ravi had asked. So generally what do we do when we do lopa? We say alontyasya, we apply alontyasya and we delete only the antya. So if this were lopa, logically only the sakara should have been deleted by lopa. So opposed to it, since it is shadbhyaha luk, we are deleting the entire pratyaya. So I have to see if this is specific to luk shlu luk or because of a pratyaya adhikara. If there is a adhyaya called pratyayasya, the entire pratyaya, I don't know. I'll just look at it and clarify if it is actually so. It appears to be right. That since we are saying look and we are removing the entire pratyaya, well, if it were just lopa, we would generally have applied alontyasya and said we'll delete only the end of it. The sutra itself says pratyayasya lukshu lupaha, pratyayasya adarshanam. The entire pratyaya would be deleted by luk, shlu or luk. So that point is correct. So kati iti shabdasya daticha iti sutrena shat samya shadbhyo luk ityanena okay. So is it anekal? You cannot say luk is anekal. Deletion cannot be anekal. Lopa is always treated as ekal. We always apply alontyasya for lopa. Okay, never treat it as anekal. Ha, exactly. So luk is adarshanam. That's all. Pratyayasya adarshanam. Since it is saying pratyayasya adarshanam, we are deleting the entire pratyaya. We are not applying alontyasya. Whether, I mean, the adesha, finally luk happens to be, whether it is anekal or ekal, we cannot say. I don't know. it looks like adesha. Lopa is always adesha. This is correct. That is why wherever we do lopa, we treat it as an adesha. That is why we applied in achah parasmin puravidho. Akara lopaha api adeshaha. Lopa rupaha adeshaha iti uchyate. Satyam. Itu saha ekalva anekalva ityatra drashtavyam. Athava prashtavyaha guravaha. Whether you can treat look or slow or look as an anekala adesha. I do not know. I have not thought about this. To be very frank, I have not thought about these aspects earlier. I'll just think over a bit and tell you. So there are a couple of things which people have coming up. I'll just read it. So Shara Gopanji says, Ramnath Sharma says, look is always for deletion of full pratyaya, but lopa may be for a part deletion or whole deletion where specified. Exactly, that is what seems to be the confusion. Since it says pratyasya look shlu look, look shlu and look always result in complete deletion of the pratyaya, whatever the pratyaya, how many ever letters. But lopa, generally what we do is we apply alontyasya and delete the antya, but there are cases where you can delete the whole. As Priya has quoted, there is a sutra called yasya halaha, where there are two pakshas. Should you delete only yakara or entire you and a? So that there are cases where you lopa can delete the entire thing where the sthani has been specified, or if the sthani has been not been specified, we use alontyasya and delete the end, right? But look, shlu, look always result in complete deletion of the pratyaya. Okay. Right. So now kati as this pratyasya luki, we call this as look, luki sati kati ityeva rupam. So the form remains as kati. Now the question is, there is a sutra pratyaya lope pratyaya lakshanam bahutra upayujyate idam sutram. Pratyaya lope pratyaya lakshanam pratyaye lupte api tadashritam karyam syat. Even after a pratyaya has been deleted, we can do karya depending on the pratyaya. This is like sthanivad bhava. Okay, like we say sthanivad adeshah. So wherever we have, even if the sthani has been replaced by adesha, we treat it as a sthani. So wherever the pratyaya has been deleted, we do treat it as if the pratyaya is there and do karyas. One simple example is that of say pada samya itself. There are cases where say sakha, we deleted the supratyaya. Is it subanta or not? If it is not subanta, we cannot have suptingantam padam. Right? So pratyaya lukte api tadashritam karyam. Yathat subantam supratyaya asti iti matva padasamya kriyate. We do have padasamya. We apply it very widely. This sutra is applied very widely. So even after the pratyaya has been deleted, we can do some karya depending on it. Now what has happened is, in kati just it is said, pratyayasya luk kritam. Pratyaya luptaha. The pratyaya has been deleted. Now can we still assume that the pratyaya is there and do jasicha? Hari as iti sthite, jasicha iti gune, hare as, harayas iti bhavat. Atra api, pratyaha asti iti matva, tadashritam karyam, arthatu gunaha kartum shakya hava. Can we do the guna? Can we do it as kate? It's the question. Pratyaya lope pratyaya lakshanam iti sutrena, gunaha kartum shakya teva. Can we do guna? Iti jasicha iti gune prapte. So by this sutra, when we have kati, after the pratyaya has been deleted, we still have an option to do guna using jasicha. Kim bhavati na lumatangasya iti nishedha. So the nishedha says na lumata angasya iti chedha. Na lumata angasya. Na pratyalope pratyalakshanam na. It is the very next sutra to pratyalope pratyalakshanam. Pratyalakshanam na bhavati. Kadana bhavati angasya. Angasya ityadhikare. Angakaryam na bhavati. यत्र अङ्गकार्यं लुमता लुमत् लु अस्य अस्ति इति अथवा लुः अस्य अस्ति इति लुमान् लैक् वि हेव् बुद्धिः अस्य अस्ति इति बुद्धिमान् वि हेव् लुः अस्य अस्ति इति लुमान् लुमान् मीन्स् संथिङ्ग् विच् हेस् द सिलेबल् लु लुक् श्लु लुप् all of them in common have the syllable lu so luman means all these three luk shlu lup ete lumantah buddhimantah iti vat tumantah iti bahuvachanam lumata lupte lumata shabdena lupte so wherever the deletion is by luk shlu or lup tannimittam angakaryam nasyat So we cannot do an angakarya depending on that pratyaya, bringing that pratyaya by pratyaya lakshana. So there is no pratyaya lakshana for angakarya when the lopa has been by luk, shlu or lup. Right? Now what we have to do here is jasicha. You notice jasicha, it is in the 7th adhyaya. So, I don't remember the exact number, you can go back and see. It's in 7-1 or 7-2. Angasya ityadhikare vidyate. So this is an angakarya. And the pratyaya has been deleted by shadbhyo luk. Lumata shabdena lukte. Tannimittam. Tat pratyaya nimittam angakaryam na bhavati. So jasicha is 7-3-1-0-9. Thanks, Ravi. So 7-3-1-0-9 is the number of jasicha which is an angakarya so lumata shabdena lupte tannimittam angakaryam nasyat lumata luk shadbhyo luk iti luka lupte tannimittam jas nimittam angakaryam jasicha iti gunaha na bhavati so once the pratyaya is deleted we cannot do guna using pratyaya lakshana okay. so we go to kati shabda so the difference is only in the jas and shas ಉಭಯತ್ರಾಪಿ ಷಡ್ಭ್ಯೋ ಲುಕ್ ಜಸ್ ಶಸೋಹ ಲುಕ್ ಭವತಿ ಸೊ ಇನ್ ಬೋತ್ ಪ್ಲೇಸಸ್ ಜಸ್ ಅಂಡ್ ಶಸ್ ಇಸ್ ಆರ್ ಬೋತ್ ಡಿಲೀಟೆಡ್ ಬೈ ಷಡ್ಭ್ಯೋ ಲುಕ್ ಸೊ ಯು ಹ್ಯಾವ್ ಕತಿ ಕತಿ ತತಃ ಕತಿ ಭಿಸ್ ಋತ್ವಂ ವಿಸರ್ಗ ಕತಿಭಿಃ ಕತಿ ಭ್ಯಸ್ ಋತ್ವಂ ವಿಸರ್ಗ ಕತಿಭ್ಯ ಕತಿಭ್ಯ ಕತೀನಾಂ ಕತಿ ಆಂ ಇತಿ ಸ್ಥಿತೆ ಹ್ರಸ್ವ ನದ್ಯಾಪೋ ನುಟ್ ಇತಿ ನುಡಾಗಮಃ ನಾಮಿ ಇತಿ ದೀರ್ಘಃ katina katishu so here now there is no difference between hari shabda and kati only in jas and shas the pratyaya is deleted by shadbhyo luk so in kati though we saw a lot of sutra actual thing happens is only pratyaya lopa so what happens kati shabdah nityam bahuvachanantah bahugana vatu dati sankhya iti sankhya samya vidyate dati cha iti shat samya vidyate षट्संज्ञायाः आधारेण षड्भ्यो लुक् इति लुक् नाम लोपः क्रियते लोपे कृते गुणः न भवति दट् इस् अबौट् कति एनी डौट्स् क्वश्चन् अर्लियर् विच् ऐ मिस्ड् एनी क्वश्चन्स् ಕೃಷ್ಣ ಸಂತಿ ಓಕೆ ಯು ಕ್ಯಾನ್ ಸ್ಟಾಪ್ ಹಿಯರ್ ಫಾರ್ ಟುಡೇ ಏನಾಕ್ಷರ ಸಮಾಂ ವಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಉತ್ತಮ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ಮುನಿತ್ರೇನ್ ನಮಸ್ಕೃತ್ಯ ತದಕ್ಷಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ